नमो नमः प्रियाः श्रोतारः, वसंत ऋतोः आगमनानन्तरं प्रत्येकस्यां दिशि नाना वर्णाः संभरिताः। होली पर्वपि विविध वर्णयुतं वर्तते। भवतां समेषां जीवने अपि हास्यस्य सौख्यस्य च वातावरणं सम्प्रसरेदिति मनसि ध्यात्वा अहं निधिः तिवारी अस्मिन् संस्कृत साप्ताहिकीति विशिष्टे संस्कृत कार्यक्रमे स्वागत वचांसि समीभ्यः स्वश्रोतृजनेभ्यः समर्पयामि। प्रिय बान्धवाः, अधुना सुभाषितानुभागे भवन्तः सर्वे श्रोष्यन्तीति भर्तृहरिणा विरचितस्य वैराग्य शतकस्य एकः श्लोकः, यो हि अस्मदीयया सह योगिनया निधिना तावच्च श्रूयन्ताम्।
आशानाम नदी मनोरथ जला तृष्णा तरंगाकुला रागग्राहवती वितर्क विहगा धैर्यद्रुमध्वंसिनी मोहावर्त सुदुस्तराति गहना प्रोतुंग चिंता तटी तस्या पारगता विशुद्ध मनसो नंदन्ति योगीश्वरा।
श्रोतारः, प्रख्याते यजुर्वेदे अध्यायस्वरूपो विद्यते शिवसङ्कल्पसूक्तमिति। तत्रोक्तं वर्तते तन्मे मनः शिवसङ्कल्पमस्तु, अर्थात् सः मे मनः कल्याणप्रदसङ्कल्पैः सह युक्तो भवत्वेति। तावत् भगवन्तं शिवं समाश्रित्य एकां वन्दनस्तुतिं श्रावयति अस्मदीया सहयोगिनी रिङ्कु।
सानन्दमानन्दवने वसन्तम् आनन्दकन्दम् हर्थपापवृन्दम् वाराणसीनाथमनाथनाथम् श्रीवेश्वनाथम् शरणं प्रपद्ये। श्रीवेश्वनाथं शरणं प्रपद्ये।
प्रिय मित्राणि, अधुना श्रोष्यामो वयं साप्ताहिकी वार्ताः, या हि निगद्यते अस्मदीयया सहयोगिनया सुषमा कुमार्यया। तावत् मिलित्वा शृणुमः।
प्रधानमन्त्री नरेन्द्र मोदी मॉरिशस देशस्य राष्ट्रिय दिवस समारोहे भागं निर्वोढुं प्रस्थितः। श्रीमोदिना हिन्द महासागरीय क्षेत्रस्य विकास सुरक्षायै च मॉरिशस देशेन समं सम्बन्धान् सुदृढयितुं बलं प्रदत्तम्। संसदि रेलवे संशोधन विधेयकः पारितः। विधेयके अस्मिन् रेलमण्डलस्य कार्यप्रणाली स्वतन्त्रतां च वर्धनाय अभ्याचना विहिता। लोकसभायां सामुद्रिक क्षेत्रे वाणिज्यिक गतिविधयः वर्धनार्थं लदानिति नामधेयः विधेयकः एकः अभिसंस्तुतः। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया छात्रैः वृत्त्यवसराणि अवाप्तुं स्वमानसिकतां स्वीकरणाय आह्वानं कृतम्। रूसदेशेन गुप्त कार्याचरणान् सम्बद्ध आरोपान् अभिलक्ष्य ब्रिटेन देशीय राजनैकौ द्वौ निष्कासितौ। मुम्बय्यां महिला प्रीमियर लीग क्रिकेट श्रृंखलायां मुम्बई इंडियंस दलं गुजरात जॉयंट्स दलमध्ये स्पर्धा संजाता।
सुहृद श्रोतारः, साम्प्रतम् अग्रे सरामो वयं ज्ञान विज्ञान प्रभागं प्रति, यत्र हि डॉक्टर राकेश गौतम महोदयेन सह संवादाय उपस्थितोऽस्ति अस्माकं प्रभागकर्ता पुनीत त्रिपाठी। असौ विविधेषु विषयेषु प्रश्नान् पृच्छति एतेन अतिथिना सह। तावत् रुचिकरां वार्तां वयं शृणुमः मिलित्वा। आयान्तु।
प्रियाः श्रोतारः, अद्य अस्माभिः साकं संस्कृत साप्ताहिक्याः ज्ञान विज्ञान प्रभागेऽस्मिन् साक्षात्काराय समुपस्थितः वर्तते अध्यापकः लेखकश्च डॉक्टर राकेश गौतम महाभागः। महोदयः, सर्वप्रथमं आकाशवाणी पक्षतः स्वागतं व्याहरामि अहं पुनीत त्रिपाठी।
धन्यवादः त्रिपाठी महोदयः। सर्वेभ्यः श्रोतृजनेभ्यः नमो नमः।
महोदयः, सर्वप्रथमं ज्ञातुमिच्छामः यत् कथम् आसीत् भवताम् अध्ययनात् अध्यापनं यावत् अध्यापनात् सम्प्रति लेखकं यावच्च यात्रां, कृपया अस्माकं श्रोतृजनान् ज्ञापयन्तु।
महोदय, भवतः प्रश्नः समीचीनः अस्ति। सामान्यदृष्ट्या पश्यामः यत् पठनानन्तरं पाठनं भवति, पाठनानन्तरं लेखनकार्यं सम्भवति। संस्कृतगुरुकुले एषा परम्परा वर्तते यत् ये वरिष्ठाः छात्राः सन्ति ते सर्वप्रथमम् आचार्याणां सान्निध्ये अध्ययनं कुर्वन्ति, ततः तैव वरिष्ठाः छात्राः आचार्यमार्गदर्शने अध्यापनकार्यम् अपि कुर्वन्ति। अध्यापनकार्यं कुर्वन् शनैः शनैः बुद्धिः लेखनकार्यं प्रति प्रवृत्ता भवति। लेखनस्य नियमः अस्ति यत् अधिकाधिकग्रन्थानाम् अध्ययन सह स्वाध्याय, तदा जनोपयोगी जनकल्याणाय लेखनकार्यं भवति। एषा ममापि स्थितिः वर्तते, अहमपि अस्यां प्रक्रियायां प्रचलामि।
अस्तु महोदय, तृतीयप्रश्नात् प्राक् ज्ञातुमिच्छामः यत् लेखनाध्यापनयोर्मध्ये किञ्च सरलं रुचिकरं वा अस्ति भवतां कृते।
महोदय, भवतः प्रश्नः महत्वपूर्णः अस्ति। लेखनाध्यापनयो मध्ये कार्यकारणसम्बन्धः, कारणेन विना कार्यं न भवति, तेनैव प्रकारेण अध्यापनेन विना अनुसन्धानात्मक लेखनकार्यम् अपि सम्भवः नास्ति। मम दृष्ट्या अध्यापनं सामान्यग्रन्थानां तत् विषयसम्बन्धितग्रन्थानाम् अवलोकनेन पठनेन वा कर्तुं शक्यते, किन्तु लेखनविषये एषा स्थितिः नास्ति। लेखनात् पूर्वम् आचार्यसन्निधिः आवश्यकी, शुद्धाशुद्धीनां ज्ञानम् आवश्यकम्, स्तरानुकूललेखनकार्यं जनकल्याणलेखनकार्यं यदा भवति तदा लेखनम् अध्यापनञ्च स्वयमेव रचनाकारस्य कृते सरलं रुचिकरं भविष्यति।
अस्तु, यथा वयं जानीमः यत् मरणात् मननात् वा त्रायन्ते इति मन्त्राः उच्यन्ते, अमुं भावम् आधृत्य भवतः सद्यः एव प्रकाशितस्य मन्त्रानुष्ठानम् इति ग्रन्थस्य लोकार्पणं जातम्, कृपया किञ्चित् ग्रन्थस्यास्य वैशिष्ट्यं प्रतिपादयन्तु।
इदानीं यावद् विश्वे समुपलब्धग्रन्थेषु प्राथम्यं ऋग्वेदस्य एव वर्तते, कृतिः इयं मन्त्रेषु उपनिबद्धं विद्यते। मन्त्रपदस्य व्युत्पत्तिः भवति मननात्रायति इति मन्त्रः, एतदर्थम् एव ग्रन्थे प्रोक्तं मननात्रायते यस्मात् तस्मान् मन्त्रः प्रकीर्तितः। अनेन ज्ञायते यत् चिन्तनमनमात्रेण जीवनस्य रक्षणकर्तारः मन्त्राः भवन्ति, अतो भारतीयशास्त्रेषु मन्त्राणां महत्वातिदायकं स्थानं वर्तते। भारतीयशास्त्रपरम्परायाम् अध्यापनयोर्महत्त्वं शास्त्रज्ञाः एव जानन्ति, तयोः प्रक्रिययोः विधिवत् सफलतायै ग्रन्थस्य उपलब्धिः परम आवश्यकी वर्तते। ग्रन्थलेखनम् ईश्वरस्य आराधना वर्तते, यतोहि शास्त्रपिपासवः ग्रन्थम् अधीत्य अन्तःकरेण बाह्यकरेण च बाह्यरूपेण च अहर्निशं जनकल्याणाय कार्यं कुर्वन्ति, अतः शास्त्रसेवार्थं रोगोपशमनार्थं मन्त्रानुष्ठानम् इति ग्रन्थः सङ्ग्रहीतः। वैदिकानुष्ठानार्थम् अयं ग्रन्थः बहुपयोगी सार्थकश्च वर्तते। सम्प्रति वैदिकानुष्ठानस्य बहवः ग्रन्थाः समुपलब्धाः, किन्तु विशेषरूपेण रोगनिवारणार्थं कानि अनुष्ठानि भवेयुः इति तत्र न दृश्यते, अतः अनुष्ठानप्रक्रियायां वैदिककर्मकाण्डिनः सामान्यतया आरोग्यतार्थं मृत्युञ्जयमन्त्र, महामृत्युञ्जयमन्त्र, मृत्सञ्जीवनीमन्त्रश्च इत्यादीनाम् अनुष्ठानं कुर्वन्ति। तत्तु लौकिकव्यवहारे समीचीनं, किन्तु शास्त्रीयपद्धत्या रोगानुसारं यदि अनुष्ठानं क्रियते तर्हि रोगिणः शीघ्रमेव स्वास्थ्यलाभं प्राप्स्यन्ति। मन्त्राणाम् असकृत् जप प्रभावात् दुरितादुत्सयम् अपि मोचयितुं शक्यते, एतदर्थम् अत्र सर्वारिष्टशान्त्यर्थं महामृत्युञ्जयजपविधिः, नवग्रहमन्त्रजपप्रयोगः, सन्तापशिरोरोगनिवृत्त्यर्थं सूर्यमन्त्रजपप्रयोगः, मानसिकश्वसनविकारनिवृत्त्यर्थं चन्द्रमन्त्रजपप्रयोगः, रक्तविकारनिवृत्त्यर्थं भौममन्त्रजपप्रयोगः, त्वग्विस्मरणविकारनिवृत्त्यर्थं बुधमन्त्रजपप्रयोगः, उदरविकारनिवृत्त्यर्थं सन्तानप्राप्त्यर्थञ्च बृहस्पतिमन्त्रजपप्रयोगः, मधुमेहरोगनिवृत्त्यर्थं शुक्रमन्त्रजपप्रयोगः, दीर्घकालिकरोगनिवृत्त्यर्थं शनिमन्त्रजपप्रयोगः, रक्तचापरोगनिवृत्त्यर्थं राहु मंत्र जप प्रयोग, कुष्ठ रोग, दद्रु रोग निवर्त्यर्थम केतु जप प्रयोगश्च इत्यादय विविधाः काम्य प्रयोगाः विनिर्दिष्टाः सन्ति। स्तोत्रम कस्य न तुष्टये इति अनुचरता अरिष्ट निवारणार्थम स्तोत्राणि आरोग्यतार्थम गणेश पंचरत्न स्तोत्रम, श्री दारिद्र दहन स्तोत्रम, सिद्ध सरस्वती स्तोत्रम, शीतलाष्टकम, श्री राम रक्षा स्तोत्रम इत्यादीनि नाना स्तोत्राणि अस्मिन् प्रकरणे संकलितानि सन्ति। शास्त्राणाम् आलोडनेन तेषां पारायणेन विदुषः कर्तुः महद्बौद्धिकं सुखं जायते इति सर्वैः सुधीभिः प्रत्यक्षानुभूतं वर्तते। अतो हेतोः अत्रापि ग्रन्थानां पारायणविधिः, श्रीमद्भागवतपारायणविधिः, श्रीमद्वाल्मीकिरामायणस्य पारायणविधिः, श्रीमद्भगवद्गीतायाः पारायणविधिः, दुर्गानुष्ठानं पूजननिर्देशपूर्वकं सप्तसत्याः पाठविधिश्च विशदेन सम्यग्रीत्या अमुं ग्रन्थम् अलङ्करोति। सविधि शिवोपासनायाः संसिद्ध्यर्थं रुद्रपूजनम्, अभिषेकञ्च षोडशोपचारपूजनपूर्वकं रुद्राभिषेकः, शिवताण्डवस्तोत्रं, शिवमहिम्नः, विश्वनाथाष्टकं, शिवपञ्चाक्षरस्तोत्रं, श्रीरुद्राष्टकं, लिङ्गाष्टकं, शिवस्तुतिः, रुद्राभिषेकः, उत्तरपूजनं, हवनं कर्माणि च कुशकण्टिकासहितं निरूपितानि। अन्ते शुभकार्यार्थं दिवारात्र्योः मुहूर्ताः निरूपिताः सन्ति। श्रुतिपरम्परासु, तान्त्रिकग्रन्थेषु, चिकित्सकीयग्रन्थेषु च मान्त्रिकचिकित्सायाः वर्णनम् उपलभ्यते। वेदेषु अध्यात्मविद्यया सहैव लोकोपयोगिनां विविधमन्त्राणां वर्णनं प्राप्यते। वैद्यकर्मसु अपि मन्त्रचिकित्सायाः सर्वोत्कृष्टत्वं शास्त्राणि प्रतिपादयन्ति। यथा रसवैद्यः, स्मृतो वैद्यः, मानुषो मूलकादिभिः, अदमः शस्त्रदाहाभ्यां सिद्धवैद्यस्तु मान्त्रिकः। अथर्ववेदे समागतचिकित्साविधिषु मन्त्रचिकित्सा, जलचिकित्सा, तेजश्चिकित्सा, औषधचिकित्सा इत्यादयः प्रमुखाः सन्ति। ग्रन्थे अनेकैः सूक्तैः रोगविमुक्त्यर्थं स्तवनम् औषधिविज्ञानञ्च कीर्तितम्।
अस्तु महोदय, मन्त्रानुष्ठानात् पूर्वम् आदौ पूजनविधिः कीदृशो भवतीति तावत् अस्य प्रकारकस्य विधेः विषये किञ्च लिखितमस्ति एतस्मिन् पुस्तके।
धन्यवादः महोदय। मन्त्रानुष्ठानं ग्रन्थेऽस्मिन् आदौ लोके व्यवहृतानां प्रायः सर्वेषां पूजनविधीनां, तदन्वितानां मन्त्राणां, स्तोत्राणाञ्च निर्देशः समुपलभ्यते। प्रारम्भिकपूजनात् आरभ्य गणेशाम्बिकयोः पूजनं, कलशस्थापनं, पुण्यः वाचनम्, अभिषेकः, मातृकापूजनं, वसोद्धारापूजनम्, आयुष्यमन्त्रजपः, नान्दीश्राद्धम्, आचार्यादिवर्णम्, सर्वतो भद्रमण्डल, द्वादशलिङ्गतो भद्रमण्डल, चतुष्षष्टियोगिनीनां विधानम्, पञ्चभूसंस्काराः, ग्रहमण्डलदेवतानाम्, अधिदेवतानां, प्रत्यधिदेवतानां विधानम्, पञ्चलोकपाल क्षेत्राधिपति वास्तोस्पतेश्च विधानम्, दशदिक्पालस्थापनम्, असङ्ख्यातरुद्रकलशस्थापनम्, अग्न्युत्तारणम्, गृहवास्तुपूजाप्रयोगः, एकाशीतिपदवास्तुमण्डलदेवतास्थापनम् इत्यादीन् प्रमुखविषयान् सन्निरूप्य ततः अध्यायेषु कायिकरोगान् अपहर्तुं विविधाः मान्त्रिकप्रयोगाः निरूपिताः सन्ति। तत्रादौ जातवेदस्य मन्त्रानुष्ठानं सर्वरोगहर श्रीमाहेश्वरकवचं, सद्य आरोग्यकरं सूर्यार्घ्यदानविधानं, ज्वरस्तोत्रं, गर्भिण्यः प्रतिमासं गर्भरक्षाप्रकारः, बालानां रोगोपशमनविधानं, महामारीसमनविधानम्, अनावृष्टिसमनविधानम्, सर्वरोगनाशकधर्मराजमन्त्रविधानम् इत्यादिभिः यथाविधि च प्रयोगैः आरोग्यम् अवाप्यते। वैदिकमन्त्रानुष्ठानप्रक्रियायां जपात्मक अनुष्ठाने दशांशक्रमः यथा सर्वप्रथमः जपः, ततः होमः, ततः तर्पणं, ततः मार्जनं, ततः ब्राह्मणभोजनं च एवं क्रमेण यदा प्रक्रिया प्रचलति तदैव तदनुष्ठानं सफलं भविष्यति। अस्मिन् ग्रन्थे सर्वाविधयः सन्ति। ये संस्कृतज्ञाः सन्ति तेषां कृते अयं ग्रन्थः बहुपयोगी भविष्यति। मन्त्रानुष्ठानम् इति ग्रन्थस्य त्रयः भागाः सन्ति। प्रथमः रोगादिशमनार्थं, द्वितीयः नित्यनैमित्तिककर्मार्थं, तृतीयः देवप्रतिष्ठासंस्कारार्थं। सम्प्रति प्रथमो भागः एव समुपलब्धः। द्वितीयभागस्य लेखनकार्यं प्रचलति। सः ग्रन्थः अपि शीघ्रमेव आगमिष्यति।
अस्तु महोदय, भवते अस्मै बहुमूल्य समयदानाय अहं पुनीत त्रिपाठी आकाशवाणी पक्षतः धन्यता वचांसि समर्पयामि।
धन्यवादः त्रिपाठी महोदय, श्रोतृजनाञ्च धन्यवादः।
श्रोतारः सम्प्रति श्रूयन्तां दिग्दर्शन प्रभागः। मध्यप्रदेशस्य सागरस्थितस्य डॉक्टर हरिसिंहगौड़ विश्वविद्यालयस्य संस्कृतविभागस्य शोधविकासशाखायाः आन्तरिकगुणवत्ता आश्वासन प्रकोष्ठस्य च संयुक्त तत्वावधाने भारतीय ज्ञान परम्परायां पुरुषार्थ चिन्तनमिति विषयमधिकृत्य द्विदिवसीया राष्ट्रिया संगोष्ठी डॉक्टर हरिसिंहगौड़ केन्द्रीय विश्वविद्यालये समायोजिता। एतस्यां संगोष्ठ्यां संस्कृतजगतः अनेके वरिष्ठाः विद्वांसः समागताः। अत्रावसरे प्रख्यात विद्वांसः प्रोफेसर राधावल्लभ त्रिपाठी महाभागाः जीवनस्य मूल्यं पुरुषार्थो एव विद्यते इत्युक्त्वा स्ववक्तव्यं प्रकाशितवन्तः। हिमाचल आदर्श संस्कृत महाविद्यालयः नवदेहल्याः केन्द्रीय संस्कृत विश्वविद्यालयः च इत्यनयोः संयुक्तोपक्रमे समायोज्यमाना द्विदिवसीया राष्ट्रिया संगोष्ठी आयोज्यते। भारतीय दर्शन परम्परायां विदुषीणां योगदानमिति विषयम् आधृत्य मार्च मासस्य 17-18 दिनांकयोः आयोज्यते। मार्च मासस्य 10 दिनांके नवदेहल्यां संस्कृतस्य विस्मयावहां अनितर साधारण बौद्धिक क्रीडाम आलक्ष्य अष्टावधानम इति बौद्धिक कार्यक्रमः समायोजितः। अस्मिन् कार्यक्रमे अष्टावधानी डॉक्टर उमा महेश्वर एन इत्येषः विद्वान विविध पक्षेषु स्वबौद्धिक प्रगतिं प्रकटितवान्। अस्तु बालाः, सम्प्रति भवतां कृते एकया रुचिकर कथया सह उपस्थितास्ति अस्मदीया सहयोगिनी ऋचा झा, या हि सद्बुद्धेः उपयोगः कथं भवतीति एकां काक कुक्कुरयोः कथां समाश्रित्य श्रावयति एषा।
अयि बालाः, आगच्छन्तु शृण्मः एका ज्ञानवर्धिनी कथा। एतत् सुन्दरम् उद्यानम् अस्ति। अत्र अनेके वृक्षाः पादपाः च सन्ति। उद्याने पुष्पाणि विकसन्ति। अत्र अनेके पशुपक्षिणः निवसन्ति। अत्र एकः विशालः वटवृक्षः अस्ति। अस्मिन् वटवृक्षे एकः काकः एकः कपोतः च वसतः। कपोतः अति सरलः अस्ति। काकः कपोतं पीडयति। एकदा कपोतः एकां पूरिकां स्वकोटरे स्थापयति। काकः बलेन पूरिकां नीत्वा खादति। तदा एव एकः बुभुक्षितः कुक्कुरः आगच्छति। सः काकं कथयति, काकराज, तव स्वरः अतीव मधुरः अस्ति, एकं गीतं गाय। काकः स्वप्रशंसां श्रुत्वा प्रसन्नः भवति। यदा सः गीतं गायति तदा पूरिका अधः पतति। चतुरः कुक्कुरः पूरिकां खादति, हसति, धावति च। मूर्खः काकः लज्जितः भवति। अतः अस्माभिः सद्बुद्धेः उपयोगः करणीयः, येन अस्माभिः अन्यः कश्चिदपि स्वप्रयोजनं पूरयितुं न शक्नोति। धन्यवादः।
प्रियाः श्रोतारः, बालवल्लर्याः प्रभागानन्तरं सम्प्रति एकं भारतं श्रेष्ठं भारतमिति प्रभागं कथयति एषा मुदिता वेतालः, अस्माकं प्रभागकर्त्री, यत्र विविधभाषाणां वाक्यानि आधृत्य भारतस्य भाषागत वैविध्यं प्रकटयति।
प्रथमं वाक्यमस्ति, आयुर्वेदः प्राचीनतमा भारतीया चिकित्सा पद्धतिः विद्यते। पहला वाक्य है, आयुर्वेद प्राचीनतम भारतीय चिकित्सा पद्धति है। राजस्थानी में आयुर्वेद भारतरी पुरानी चिकित्सा पद्धति है। द्वितीयं वाक्यमस्ति, आचार्यौ चरक सुश्रुतौ प्रसिद्धौ आयुर्वेद वैद्यौ आस्ताम। दूसरा वाक्य है, आचार्य चरक और सुश्रुत आयुर्वेद के प्रसिद्ध वैद्य थे। राजस्थानी में इनरा प्रसिद्ध वैद्य आचार्य चरक और सुश्रुता। तृतीयं वाक्यमस्ति, आचार्यः सुश्रुतः शल्य चिकित्सायाः प्रवर्तको विद्यते। तीसरा वाक्य है, आचार्य सुश्रुत शल्य चिकित्सा के जनक कहलाते हैं। राजस्थानी में आचार्य सुश्रुत शल्य चिकित्सा रा जनक हा।
श्रोतारः, सम्प्रति सम्पद्यते एषः साप्ताहिकी कार्यक्रमः। भवन्तः सर्वे स्वपरामर्शान् nsdsanskrit@gmail.com इत्यत्र सम्प्रेष्य अस्मान् प्रेरयन्तु कृपया। आगामिनि रविवासरे अस्मिन्नेव समये पुनः उपस्थिताः भविष्यामो वयम्। तावत्पर्यन्तं शुभं भूयात्। नमो नमः।